इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः ललितमोहनः तिवारी मुख्या वार्ताः प्रधानमन्त्री नरेन्द्रमोदी गुजरातस्य भुजदाहोदनगरयोः विभिन्नानां विकासात्मक परियोजनानाम् उद्घाटनम् आधारशिला स्थापनं च अकरोत्। प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वकीयस्य कार्यकालस्य एकादशवर्षाणि पूरितानि, सहैव स्थिरशासनविकासयोः युगस्य आरम्भोऽपि कृतः। केन्द्रीय शिक्षामन्त्रिणा धर्मेन्द्रप्रधानेन उक्तं यत् अस्मिन् शैक्षणिकवर्षे भारते प्रायः पञ्चदश वैदेशीयाः विश्वविद्यालयाः स्वपरिसं स्थापयिष्यन्ति। दक्षिण पश्चिम प्रावृटागमनेन महाराष्ट्र कर्णाटक राज्ययोः च अनेकेषु भागेषु प्रचण्ड वृष्टिः अभवत्। अपि च आईपीएल इति विंशति प्रतिविंशतिः क्रिकेट क्रीडा स्पर्धा मालिकायाम् अद्य सायं जयपुरे पंजाब किंग्स मुंबई इंडियंस दलयो मध्ये प्रतिस्पर्धा भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी गुजरातस्य द्विदिवसीय यात्रावधौ अद्य भुजनगरे चतुःशताधिक त्रिपञ्चाशत कोटि रूप्यकाणां मूल्यस्य त्रयस्त्रिंशत् परियोजनानाम् आधारशिलाम् अस्थापयत्। एतासु परियोजनासु कण्डलापोत पत्तन संरचना, सौर ऊर्जा, विद्युत संचारः, मार्ग निर्माणः, भवन विकासः इत्यादि प्रमुख क्षेत्राणि सन्ति। प्रधानमन्त्री भुजनगरे भव्य मार्ग प्रदर्शनम् अपि करिष्यति। आकाशवाण्याः वार्ताहरः उक्तवान् यत् सिन्दूराभियानानन्तरं प्रधानमन्त्रिणः मोदिनः सीमवर्तिक्षेत्रस्य एषा प्रथमा यात्रा अस्ति। अद्य आरब्धाभिः परियोजनाभिः कच्छ जामनगर अमरेली जूनागढ़ गिर सोमनाथ अहमदाबाद तापी महिसागर चेति क्षेत्राणि लाभान्विताः भविष्यन्ति। प्रधानमन्त्री नरेन्द्रमोदी अद्य उक्तवान् यत् 1.4 अरब भारतीया एकीभूता सन्ति, विकसित भारतस्य निर्माणे अथक कार्यं कुर्वन्ति। आत्मनिर्भरताया उपरि बलं प्रदत्ता श्रीमोदिना उक्तं यत् भारतं विकसित राष्ट्रं कर्तुं यत्किमपि आवश्यकं तत्सर्वं देशेव निर्मितं भवेत् इति आवश्यकम् अस्ति। गुजरातस्य दाहोदनगरे प्रायः 24,000 कोटिरूप्यकाणां बहुविध विकास परियोजनानां आधारशिला स्थापनम् उद्घाटनं च कृत्वा श्रीमोदिना इदम् उक्तम्।
आज देश निराशा के अंधकार से निकलकर विश्वास के उजाले में तिरंगा फहरा रहा है। साथियों, आज हम 140 करोड़ भारतीय मिलकर अपने देश को विकसित भारत बनाने के लिए जी जान से जुटे हैं। देश की तरक्की के लिए जो कुछ भी चाहिए वो हम भारत में ही बनाएं, ये आज के समय की मांग है।
आन्तरिक निर्माणस्य वृद्धिमुद्धृत्य स उक्तवान् यत् भारते निर्मिताः रेलमार्ग घटकाः अधुना इंग्लैण्ड, फ्रांस, मैक्सिको, जर्मनी इत्यादि देशेषु निर्यातिताः भवन्ति। सः सूक्ष्म लघु मध्यमोद्यम संस्थानां यूनां च प्रशंसाम् अकरोत् यत् ते वृद्धिम् अग्रे सारयन्ति। सिन्दूराभियानस्य विषये प्रवदन् प्रधानमन्त्री मोदी अवदत् यत् एतत् केवलं सैन्यकार्यं न अपि तु भारतीय मूल्यानां भावनां च अभिव्यक्तिः अस्ति।
ऑपरेशन सिंदूर सिर्फ एक सैन्य कार्रवाई नहीं है, ये हम भारतीयों के संस्कारों, हमारी भावनाओं की अभिव्यक्ति है। आतंक फैलाने वालों को सपने में भी सोचा नहीं होगा मोदी से मुकाबला करना कितना मुश्किल होता है।
श्रीमोदिना राज्य सर्वकारस्य रेलादि क्षेत्र सम्बद्धाः विविधाः विकास परियोजना अपि प्रारब्धाः। एतेषु वेरावल अहमदाबादयोः मध्ये वन्दे भारत एक्सप्रेस रेलयानानि, वलसाड दहोद स्थानकयोः मध्ये एक्सप्रेस रेलयानानि च सन्ति। प्रधानमन्त्रित्वेन शपथग्रहणस्य 11 वर्षाणि पूर्णानि कृत्वा श्रीमोदी गुजरातेन राष्ट्रेण च तस्य उपरि स्थापितस्य विश्वासस्य स्मरणं कृतवान्।
26 मई का दिन है, साल 2014 में आज के ही दिन पहली बार मैंने प्रधानमंत्री के तौर पर शपथ ली थी। गुजरात के आप सभी के लोगों ने मुझे भरपूर आशीर्वाद दिया और बाद में देश के कोटि कोटि जनों ने भी मुझे आशीर्वाद देने में कोई कमी नहीं रखी।
पूर्वं प्रधानमन्त्री मोदी दहोदनगरे भारतीय रेलवे इत्यस्य लोकोमोटिव निर्माण संयन्त्रस्य उद्घाटनं कृतवान्। प्रधानमन्त्री अद्य प्रातः द्विदिवसीय यात्रायां गुजरातनगरम् आगत्य 2,80,000 कोटि रूप्यकाणां विविध विकास कार्यक्रमाणाम् आरम्भ कृतवान्। प्रधानमन्त्रिणः नरेन्द्रमोदिनः कार्यभारस्य अद्य एकादश वर्षाणि पूरितानि। चतुर्दशोत्तर द्विसहस्रतमे वर्षे अस्मिन्नेव दिने श्रीमोदिनः भारतस्य प्रधानमन्त्रित्वेन शपथग्रहणं कृतवान् आसीत्। एतेन देशस्य आधुनिक राजनैतिक इतिहासस्य एकं महत्वपूर्णं परिवर्तनम् अभवत्, यतः एतेन भारते गठबन्धनस्य राजनीतेः त्रिंशत् वर्षाणां युगस्य समाप्ति अभवत्, यत्र जनाः भाजपेति दलाय स्पष्टं निर्णायकं च जनादेशं प्रदत्तवन्तः। भारतीयानाम् ऐतिहासिकं जनादेशं सम्प्राप्य नरेन्द्रमोदी भारतस्य चतुर्दशतमः प्रधानमन्त्रीरूपेण शपथं गृहीतवान्। अस्मिन्नेव दिने चतुर्दशोत्तर द्विसहस्रतमे वर्षे मई मासस्य षड्विंशते दिनांके सायं राष्ट्रपतिभवनस्य प्रांगणे इतिहासे नूतनाध्यायस्य लेखनं जातम्। नरेन्द्रमोदिनी देशस्य जनाः एकं गतिशीलं निर्णायकं विकासप्रधानं च नेतारं पश्यन्ति, यः एककोटि भारतीयानां स्वप्नानाम् आकांक्षाणां च आशाया रश्मिरूपेण उद्भूतः।
मैं नरेंद्र दामोदर दास मोदी ईश्वर की शपथ लेता हूं कि मैं विधि द्वारा स्थापित भारत के संविधान के प्रति सच्ची श्रद्धा और निष्ठा रखूंगा। मैं भारत की प्रभुता और अखंडता का अक्षण रखूंगा।
विकासे तस्य ध्यानं विस्तरेण दृष्टिः निर्धनानाम् अत्यन्त निर्धनानां च जीवने गुणात्मकं परिवर्तनम् आनेतुं प्रयत्नः च नरेन्द्रमोदिनं देशस्य एकः लोकप्रिय नेतारूपेण विनिर्माति। श्रीमोदिनः प्रधानमन्त्रित्वेन कार्यभारग्रहणं सबका साथ सबका विकास सबका विश्वास सबका प्रयास इति मन्त्रेण सह विकासोन्मुख राजनीतेः आरम्भः आसीत्। विगतेषु एकादश वर्षेषु देशे सर्वेषु क्षेत्रेषु महत्वपूर्णानि परिवर्तनानि दृष्टानि, नूतनः विश्वासः च प्राप्तः। सामान्यजनानां कृते आधारभूत संरचनासु सुधारः, आधारभूत संरचनानां संवर्धनम्, अर्थव्यवस्थां सुदृढीकरणं च आरभ्य वृत्त्यावसरानां सृजनं यावत् आन्तरिक सुरक्षां सुनिश्चित्य भारतस्य वैश्विक बिम्बं च वर्धयितुं नरेन्द्रमोदिनः नेतृत्वेन सम्पूर्णेऽपि विश्वे नूतनं परिचयं प्रदत्तम्। नीतिपक्षाघातस्य रिक्थं त्यक्त्वा भारतं विश्वस्य चतुर्थं बृहत्तमम् अर्थव्यवस्था सञ्जातम्। सम्प्रति भारतं मोदिनः सशक्तनेतृत्वे सप्तचत्वारिंशदधिकद्विसहस्रतमवर्षपर्यन्तं विकसित राष्ट्रं भविष्यति इति आकांक्षा अस्ति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। केन्द्रीय शिक्षामन्त्रिणा धर्मेन्द्र प्रधानेन उक्तं यत् अस्मिन् शैक्षणिकवर्षे भारते प्रायः पञ्चदश वैदेशीया विश्वविद्यालयाः स्वपरिसरं स्थापयिष्यन्ति। सः अवदत् अस्मिन् विषये प्रशासनेन विदेशीय विश्वविद्यालयानाम् अनुमतिः प्रदत्ता अस्ति। अद्य नवदिल्ल्यां युनाइटेड किंगडम देशस्य लिवरपूल विश्वविद्यालये आशयपत्र हस्तान्तरण समारोहं सम्बोधयन् श्रीप्रधानेन एतत् प्रकाशितम्। सः एतां सहभागिताम् एकां प्रतीकात्मकरूपेण वर्णितवान् तथा च वैश्विक उच्चशिक्षायां भारतस्य विश्वसनीय सहभागित्वस्य भावं वर्णितवान्। वार्ताहरान् समबोधयन् मन्त्री अवदत् यत् लिवरपूल विश्वविद्यालयः आगामिवर्षात् आरभ्य कार्यं करिष्यति। सः सूचितवान् यत् आस्ट्रेलियादेशस्य द्वयोः विश्वविद्यालयोः गुजरातनगरे शैक्षणिकसत्रं प्रारब्धम् अस्ति। भारतीय ऋतुविज्ञान विभागेन तटीयक्षेत्रेषु अतिवृष्टिः अनुमानितमस्ति। दक्षिण कर्णाटक केरल तमिलनाडु पुद्दुचेरी चेत्येतेषु क्षेत्रेषु अतिवृष्टिः सम्भावना वर्तते। ऋतुविज्ञान विभागेन आगामि दिनद्वयोः दिल्ली आन्ध्रप्रदेश गुजरात हरियाणा चण्डीगढ़ हिमाचलप्रदेश झारखण्ड पंजाब राजस्थान चेत्येतेषु राज्येषु अतिवृष्टेः तीव्रवायोः च अनुमानं प्रख्यापितमस्ति। स्टावेंजर नगरे अद्यारभ्य आरभ्यमाणे नॉर्वे शतरंज टूर्नामेंट इत्यस्याः प्रतिस्पर्धायाः प्रथमे चक्रे विश्वस्तरीय शतरंज क्रीडकः डी गुकेशः मैग्नस कार्लसन इत्यमुं सम्मुखीकरिष्यति। अपरतः नवोदितः अर्जुन एरिगेसी चीनस्य वे ईई इत्यमुं सम्मुखीकरिष्यति। महिलावर्गे प्रथमे चक्रे कोनेरू हम्पी आर वैशाली चोभयो मध्ये स्पर्धा भविष्यति। आईपीएल इति विंशतिः प्रतिविंशतिः क्रिकेट क्रीडा स्पर्धा मालिकायाम् अद्य सायं जयपुरे पंजाब किंग्स मुंबई इंडियंस दलयोर्मध्ये क्रीडा भविष्यति। स्पर्धायाः आरम्भः सायं सार्ध सप्तवादने भविष्यति इति वार्ताः।